सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते, भगिनी श्लोकान् स्मारयतु।
ॐ गुरुभ्यो नमः। येन अक्षरसमानायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानचं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। धन्यवादः भगिनी।
धन्यवादः। औपदेशिकधातुषु इत्संज्ञकवर्णानां लोपकार्यानन्तरं प्राकृतिकानि कार्याणि भवन्ति धातुमाश्रित्य। तत् चिन्तनम् आरब्धमासीत्, अद्यापि तस्यानुवर्तनं क्रियते। सत्वं नत्वं नुमागमः च अधीतम्। उपधादीर्घः इति एकम्, अन्यत् कार्यमस्ति। चतुर्थं कार्यम् उपधादीर्घः इति तस्मिन् प्रसङ्गे अद्य एकवारम् अवलोकयामः। इदित् धातुषु नुमागमः भवति, नुमागमस्य अनन्तरं सन्धिकार्यद्वयेन नकारस्य परिवर्तनं भवति। इदितोनुं धातोः इति सूत्रेण यः नकारः आगतः तस्य नकारस्य परिवर्तनं भवति, सन्धिकार्यद्वयेन भवति। नश्चापदान्तस्य झलि इति सूत्रेण झल् प्रत्याहारस्थवर्णः परः अस्ति चेत् तस्य नकारस्य स्थाने अनुस्वारादेशः। अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः इत्युक्ते तत्तत्वर्गीय पञ्चमसदस्यादेशः भवति अनुस्वारस्य स्थाने। इदितोनुं धातोः इति सूत्रे इदित् इति समस्तपदं दत्तमस्ति। तस्य विग्रहवाक्यम् इत् इत् यस्य सः, तस्मिन् पदे बहुव्रीहिसमासः अस्ति। प्रथम इत् इत्यस्य अर्थः ह्रस्व इकारः, द्वितीय इत् इत्यस्य अर्थः इत् संज्ञा। प्रथम इत् इत्यस्य अर्थः ह्रस्व इकारः इति कथं ज्ञायते? ईवर्णस्य अष्टादशप्रभेदाः सन्ति, अष्टादशप्रभेदाः सन्ति चेदपि इदित् इति कथनेन तत्र केवलं ह्रस्व इकारः एव स्वीकर्तव्यम् इति कथं ज्ञायते? एतदवगन्तुम् एकं सूत्रम् अवलोकनीयं। तत् सूत्रं तपरस्तत्कालस्य, तपरस्तत्कालस्य इति सूत्रस्य अवगमनार्थम् अद्य किञ्चित् करपत्रम् अवलोकयामः। इदानीं भवन्तः सर्वे करपत्रं पश्यन्तु। करपत्रे तपरस्तत्कालस्य इति सूत्रात् आरभ्य अद्य पठनीयं। वीणा भगिनी, भवती पठतु।
तपरस्तत्कालस्य प्रथमाध्याये प्रथमपादे सप्ततिः सूत्रम् अस्ति। तकारात् परः यः, तकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः। तात्परः तपरः, पञ्चमी तत्पुरुषः। तः परो यस्मात् सः तपरः, बहुर्वीहि द्वावपि अर्थौ। तस्य कालः तत्कालः, तस्य काल इव काल यस्य सः तत्कालः। षष्ठी तत्पुरुष गर्भः, बहुर्वीहि तस्य तत्कालस्य। तपरः प्रथमान्तं, तत्कालस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्। स्वरूपं शब्दस्य शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः। अनुदित सवर्णस्य च प्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य।
तपरस्तत्कालस्य इति सूत्रस्य पदविच्छेदं कुर्मः चेत् पदद्वयं वर्तते अस्मिन् सूत्रे। तपरः इति एकं पदं, तत्कालस्य इति अन्यत् पदमस्ति। इदं सूत्रं संज्ञासूत्रम्। अनेन सूत्रेण तपरकरणं क्रियते। तपरकरणम् इति एका संज्ञा इत्युक्ते नामकरणं क्रियते। तपरः तपरः इति समस्तपदमस्ति, तपरः इति समस्तपदस्य अर्धद्वयं वर्तते, इत्युक्ते अस्य पदस्य विग्रहवाक्यं द्विधा भवितुमर्हति, अथवा विग्रहवाक्यं प्रकारद्वयेन वक्तुं शक्यते, समासद्वयं भवितुमर्हति इति अत्र वार्ता. प्रथमं वाक्यं परिशीलयामश्चेत् तकारात् परः यः इति एकरीत्या विग्रहवाक्यं, तकारः परः यस्मात् इति भिन्नरीत्या विग्रहवाक्यं. तकारात् परः यः इति कथनेन तत्र पञ्चमी तत्पुरुषसमासः भवति. तकारः परः यस्मात् इति कथनेन तत्र बहुव्रीहिसमासः भवति. तपरः इति शब्दस्य अर्धद्वयं वर्तते. एकरीत्या विग्रहवाक्यं वक्तव्यं चेत् पञ्चमी तत्पुरुषसमासः भवति, भिन्नरीत्या विग्रहवाक्यं वक्तव्यं चेत् बहुव्रीहिसमासः भवति. एतद् अवगन्तुम् अधोभागे उदाहरणं दत्तमस्ति. परिच्छेदे किं लिखितमस्ति? तात् परः तपरः, तत्र पञ्चमी तत्पुरुषसमासः अस्ति. तः परो यस्मात् सः तपरः, तत्र बहुव्रीहिसमासः अस्ति. द्वावपि अर्धौ भवतः, द्वावपि इति पदमस्ति खलु, तत्र सन्धिकार्यं भवति. कीदृशसन्धिः अस्ति वदतु? द्वौ अपि तत्र सन्धिकार्यं भूत्वा द्वावपि यान्तवान्तादेशसन्धिः अस्ति. अपि च तस्मात् पूर्वं तः परो यस्मात् इति लिखितमस्ति, तत्र विसर्गसन्धिः भवति. परो यस्मात् इत्यत्र सन्धिकार्यं भवति. चतुर्थं भाटसूत्रं कार्यं कृत्वा परः इत्यस्य स्थाने परो इति रूपं, तस्य कालः इति तत्कालः. सूत्रे तत्कालस्य इति अन्यत् पदमस्ति खलु, तस्य विग्रहवाक्यं कथं वक्तव्यम्? तस्य कालः इव कालः, यस्य सः तत्कालः. तत्कालः इति कथनेन तस्य कालः इव कालः, यस्य सः इति. एतस्य अर्थः कः इति अवगन्तुम् अदेङ्गुणः इति सूत्रं परिशीलनीयम्. तत्कालः इत्यस्मिन् पदे षष्ठी तत्पुरुषगर्भ बहुव्रीहिसमासः अस्ति. आहत्य बहुव्रीहिसमासः अस्ति, तस्मिन् षष्ठी तत्पुरुषसमासः अपि अस्ति. तदर्थमेव एवं रीत्या लिखितमस्ति, षष्ठी तत्पुरुषगर्भ बहुव्रीहिः, तपरः प्रथमान्तं, तत्कालस्य षष्ट्यन्तं. स्वरूपं शब्दस्य अशब्दसंज्ञा इति सूत्रमस्ति. तस्मिन् प्रसङ्गे अपि अस्माभिः ज्ञातव्यमेव स्वरूपं शब्दस्य अशब्दसंज्ञा. स्वम् इति प्रथमान्तं पदं, रूपम् इति प्रथमान्तं, शब्दस्य इति षष्ट्यन्तं पदम्, अशब्दसंज्ञा. स्वं रूपं शब्दस्याशब्दसंज्ञा इति सूत्रात् स्वं रूपम् इति पदद्वयस्य अनुवृत्तिः अस्मिन् सूत्रे अस्ति. स्वं रूपं शब्दस्य अशब्दसंज्ञा इत्यस्य अर्थः कः? व्याकरणशास्त्रे संज्ञाशब्दान् विहाय अन्यत्र सर्वत्र शब्दग्रहणेन स्वरूपग्रहणं भवति. स्वं रूपं शब्दस्य इति प्रथमभागस्य अर्थः कः? लोकव्यवहारे तु सामान्यतया शब्दानां प्रयोगः अर्थम् आश्रित्य भवति, किन्तु व्याकरणशास्त्रे अर्थप्राधान्यं नास्ति. सामान्यभाषायाम् अर्थप्राधान्यमस्ति, किन्तु शब्दप्राधान्यं नास्ति. व्याकरणशास्त्रे तु शब्दप्राधान्यमेव अस्ति, न तु अर्थप्राधान्यम्. अग्निः इति पदं स्वीकुर्मः चेत् तत्र अग्नि इति शब्दे के के वर्णाः सन्ति, तेषां क्रमः कथमस्ति इति एव तत्र द्रष्टव्यम्. अग्निः इति पदस्य अर्थः कः इति न द्रष्टव्यं व्याकरणशास्त्रे, किन्तु लोकव्यवहारे तु तस्य शब्दस्य अर्थः कः इति ज्ञातव्यम्. किन्तु व्याकरणशास्त्रे शब्दस्य स्वस्य रूपमेव स्वीकर्तव्यम्. तस्मिन्नेव सूत्रे अशब्दसंज्ञा इति अपि उक्तमस्ति. अशब्दसंज्ञा इत्युक्ते संज्ञाशब्दान् विहाय इति, ये शब्दाः व्याकरणशास्त्रे संज्ञाशब्दाः सन्ति तान् संज्ञाशब्दान् विहाय अन्येषां शब्दानां विषये स्वस्य रूपस्य ग्रहणम् एव करणीयम्, किन्तु संज्ञाशब्दानां विषये अर्थस्य ग्रहणं भवति. व्याकरणे अपि, व्याकरणे संज्ञाशब्दानां विषये अर्थस्य ग्रहणं भवति, किन्तु अन्येषां शब्दानां प्रसङ्गे स्वस्य रूपस्य ग्रहणम् एव भवति. भिन्नरीत्या वक्तव्यं चेत् व्याकरणशास्त्रे संज्ञाशब्दानां विषये अर्थस्य ग्रहणं करणीयम्, अन्येषां शब्दानां प्रसङ्गे शब्दस्य ग्रहणम् एव भवति इति स्वं रूपं शब्दस्य अशब्दसंज्ञा इत्यस्य अर्थः. तत्पश्चात् अणुदित् सवर्णस्य च प्रत्ययः इति सूत्रमस्ति. तस्मिन् प्रसङ्गे अपि अस्माभिः ज्ञातव्यं. स्थूलरीत्या वक्तव्यं चेत् अनुदित सवर्णस्य च प्रत्ययसूत्रेण सवर्णानां ग्रहणं भवति. सर्वत्र सर्वेषां सवर्णानां ग्रहणं तद् अनावश्यकं. तेषु स्थलेषु तपरकरणं क्रियते. सर्वेषां सवर्णानां ग्रहणं यत्र अनावश्यकं भवति तत्र तपरस्तत्कालस्य इति सूत्रेण तपरकरणं कृत्वा केवलं तत्कालस्य प्रतिनिधिः एव स्वीकर्तव्यः इति अत्र वार्ता अस्ति. अदेङ्गुणः इति सूत्रं पश्यामश्चेत् वयम् इतोपि समीचीनतया अवगन्तुं शक्नुमः. तदर्थं द्वितीयं परिच्छेदम् अवलोकयाम. लक्ष्मीभगिनी भवती पठतु.
वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, तकारात् परं भवतु. यः वर्णः अनेन तकारेण संयुक्तो भवति सः तत्कालस्य एव प्रतिनिधिः. अदेङ्गुणः अस्य उदाहरणम्. अनेन अकारः अत् अतः ह्रस्व अकारस्य एव प्रतिनिधिः. एङ् प्रत्याहारः तकारात् परः अतः दीर्घवर्णानाम् एव प्रतिनिधिः, न तु प्लुतानां.
तावत् वदतु.
यः वर्णः संयुक्तः भवति सः तत्कालस्य एव प्रतिनिधिः.
तपरस्तत्कालस्य इति सूत्रस्य प्रसङ्गः अदेङ्गुणः इति सूत्रे किमर्थमस्ति? अदेङ्गुणः इति सूत्रमस्ति, भवती श्रुतवती वा सूत्रम्? कीदृशं सूत्रम्?
अत् एङ् गुणः.
गुणसन्धेः प्रसङ्गे सूत्रद्वयम् अस्माभिः ज्ञातव्यम्. गुणसन्धेः प्रसङ्गे एकं संज्ञासूत्रमस्ति अदेङ्गुणः, एकं विधिसूत्रमस्ति आद्गुणः. आद्गुणः इति विधिसूत्रमस्ति, अदेङ्गुणः इति संज्ञासूत्रमस्ति. अदेङ्गुणः इति सूत्रेण गुणः नाम किम्, गुणसंज्ञकवर्णाः के इति उच्यते. अत्र अदेङ्गुणः इति सूत्रस्य पदविभागं कुर्मः चेत् द्विधा भवितुमर्हति. एकरीत्या पदविभागं कुर्मः चेत् अत् योगः एङ्, एवं रीत्या पदविभागं कुर्मः चेत् अत् इत्यत्र तपरकरणं कृतमस्ति. अत् योगः एङ्, तत्र अकारात् परं तकारः अस्ति, इत्युक्ते तकारः परः यस्मात् सः इति विग्रहवाक्यं तत्र सङ्गच्छते. तकारः परः यस्मात् सः इति विग्रहवाक्यम् अत् इत्यत्र तपरकरणं कृतमस्ति. तत्र तकारः यस्मात् परः अस्ति सः एव स्वीकर्तव्यः इति एकः अर्थः अस्ति. तत्र बहुव्रीहिसमासः. अदेङ्गुणः इति सूत्रस्य प्रसङ्गे एव भिन्नरीत्या पदविभागं कुर्मः चेत् आयोगः तेङ्, एवं रीत्या पदविभागं कुर्मः चेत् तेङ् इत्यत्र एङ् इत्यस्मात् पूर्वं तकारः अस्ति, तत्रापि तपरकरणं कृतमस्ति. आयोगः तेङ् एवं रीत्या पदविभागं कुर्मः चेत् पञ्चमी तत्पुरुषसमासस्य विग्रहवाक्यं तत्र सङ्गच्छते. आहत्य अदेङ्गुणः इति सूत्रस्य पदविभागं द्विधा भवितुमर्हति, अत्योगः एङ् अथवा आयोगः तेङ्. एवं रीत्या गुणसन्धेः प्रसङ्गे अर्धद्वयं सिध्यति. अत् इति कथनेन केवलं ह्रस्वकारः एव स्वीकर्तव्यः. अकारे ह्रस्व दीर्घ प्लुत प्रभेदाः सन्ति. अत् इति कथनेन केवलं ह्रस्वाकारः एव स्वीकर्तव्यः, न तु दीर्घ अकारः प्लुत अकारः. सूत्रस्य प्रसङ्गे पदद्वयमस्ति, तपरः इति एकं पदं, तत्कालस्य इति द्वितीयं पदमस्ति. तत्कालस्य इत्यस्य अर्थः कः, तस्य अन्वयः अत्र कथं भवति? ह्रस्व अकारस्य कालः इव कालः अत्र स्वीकर्तव्यः. यद्यपि अकारे अष्टादशप्रभेदाः सन्ति, तथापि तपरकरणेन अदेङ्गुणः इत्यस्मिन् सूत्रे अत् इति कथनेन केवलं ह्रस्व अकारः एव स्वीकर्तव्यः. ह्रस्व अकारे अपि षट् प्रभेदाः सन्ति. कथम्? उदात्त, अनुदात्त, स्वरित, अनुनासिक, अननुनासिक प्रभेदाः सन्ति. केवलं ह्रस्वकालस्य प्रतिनिधिः एव अत्र स्वीकर्तव्यः. अपि च आयोगः तेङ् इति स्वीकुर्मः चेत् तेङ् इत्यत्रापि तपरकरणं कृतमस्ति. एङ् इति प्रत्याहारे एकारः अस्ति, ओकारः अस्ति. एकारस्य ह्रस्वरूपं नास्ति, ओकारस्यापि ह्रस्वरूपं नास्ति, एकारस्य ओकारस्य द्वयोः वर्णयोः दीर्घरूपमस्ति, प्लुतरूपमस्ति, तत्र ह्रस्वरूपं नास्ति। तेङ्गिति कथनेन केवलं दीर्घ एकारः दीर्घ ओकारः एव स्वीकर्तव्यं, न तु प्लुत एकारः प्लुत ओकारः। आहत्य गुणसंज्ञकवर्णाः के? ह्रस्व अकारः, दीर्घ एकारः, दीर्घ ओकारः, एते वर्णाः एव गुणसंज्ञकवर्णाः। यत्र यत्र तपरकरणं कृतम् अस्ति तत्र तस्य वर्णस्य यः कालः अस्ति तस्य कालस्य एव ग्रहणं भवति। पुनः वदामि, यत्र यत्र तपरकरणं कृतम् अस्ति तत्र तस्य वर्णस्य यः कालः अस्ति तस्य कालस्य एव ग्रहणं भवतु। अदेङ्गुणः इत्यस्मिन् सूत्रे अत्ययोगः एङ् तथापि पदविच्छेदं कर्तुं शक्नुमः, आयोगः तेङ् तादृशरीत्यापि पदविभागं कर्तुं शक्नुमः। अत् इति कथनेन ह्रस्वाकारः एव स्वीकर्तव्यः, तेङ् इति कथनेन दीर्घ एकारः दीर्घ ओकारः एव तस्य कालस्य प्रतिनिधिः भवति, न तु प्लुतानां ग्रहणम्। इतोपि किं ज्ञातव्यं? ह्रस्वः नाम किं, दीर्घः नाम किं, प्लुतः नाम किम्? एकमात्राकालेन उच्चारयितुं योग्यः वर्णः एव ह्रस्वः। पुनः वदामि, एकमात्राकालेन उच्चारयितुं योग्यः वर्णः ह्रस्वः। द्विमात्राकाल उच्चारणं यस्य वर्णस्य अस्ति सः दीर्घवर्णः, त्रिमात्राकाल उच्चारणं यस्य भवति सः प्लुतवर्णः, अथवा त्रिमात्राकालेन उच्चारयितुं योग्यः वर्णः प्लुतवर्णः। अहं पूर्वमपि उक्तवती, एकारस्य ह्रस्वरूपं नास्ति, ओकारस्यापि ह्रस्वरूपं नास्ति, दीर्घरूपं प्लुतरूपम् अस्ति, किन्तु अत्र तपरकरणं कृतमस्ति। अदेङ्गुणः इत्यस्मिन् सूत्रे तपरकरणेन दीर्घ एकारस्य एव ग्रहणं भवति, दीर्घ ओकारस्यापि ग्रहणं भवति। किमर्थं चेत् एङ् प्रत्याहारे एकारः ओकारः वर्णद्वयमस्ति, प्लुतवर्णानां ग्रहणम् अत्र न भवति। अत्यधिकथनेन ह्रस्वकारस्य एव ग्रहणम्। एकार ओकारयोः दीर्घवर्णानां प्रसङ्गे अपि षट् प्रभेदाः सन्ति। यथा मया उक्तम्, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः। अधोभागे इतोपि किञ्चित् लिखितमस्ति, अग्रिमपरिच्छेदम् एकवारम् अवलोकयाम। नरसिंह हेग्डे महोदय, भवान् पठतु।
यस्मात् ह्रस्व अच् परे तकार संयुज्यते सः अच् केवलं ह्रस्वस्य प्रतिनिधिः न तु दीर्घस्य प्लुतस्य वा। यत् यथा इत् ह्रस्वकार, अत् ह्रस्वकार, उत् ह्रस्वकारः, अतः ह्रस्वम् अकारं बोधयितुम् इत् इति वदामः। नो चेत् व्याकरणे यदा अकार इति वदामः तदा सः अकार अकारस्य आकारस्य अपि च आकारस्य प्रतिनिधिः। अतः महेश्वरसूत्रेषु केवलम् अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः, ते वर्णाः ह्रस्वस्य दीर्घस्य प्लुतस्य च प्रतिनिधय प्रतिनिधय। दृष्टान्ते अतः स्थाने इत् भवतु, अपि च उकारस्य स्थाने इकार भवतु, द्वयोः व्याकरणयोः समानार्थः नास्ति। अकार इति कथनेन अष्टादशप्रकारक अकारः गृह्यते, ह्रस्व उदात्त, अनुदात्त सहित, अनुदासिक अनुनासिकः, अनुनासिक अननुनासिकः, दीर्घ उदात्त, अनुदात्त स्वरितः, अनुनासिक अननुनासिकः, प्लुत उदात्त, अनुदात्त स्वरितः, अनुनासिकः अननुनासिकः इत्यनेन अष्टादश भेदाः। किन्तु तपरं स्वीकृत्य यत्र अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारक ह्रस्वकारः गृह्यते, तदर्थं तपरः क्रियते, तपरो यस्मात् स तपरः, व्याकरणे तपरकरणम् इत्युच्यते। अत्र तपरकरणं नास्ति न क्रियते चेत् यदि अकार वदामः चेत् अष्टादशप्रकाराणां ग्रहणं भवति। अष्टादशप्रकाराणाम् इत्युक्ते ह्रस्व, दीर्घ, प्लुत, उदात्त, अनुदात्त, स्वरित, अनुनासिक, अननुनासिक। परन्तु यदा त योजयामः चेत् वदेम चेत् तत्र अकारस्य एव ग्रहणं भवति। अकारस्य इत्युक्ते षट्प्रकारक अकार ह्रस्वकार, ह्रस्व उदात्त अनुनासिकः, ह्रस्व स्वरित अनुनासिक, ह्रस्व अनुदात्त अनुनासिक, ह्रस्व उदात्त अननुनासिकः, ह्रस्व स्वरित अननुनासिकः, षट्प्रकारक टोटलि.
उत्तमम्. अस्मिन् परिच्छेदे किं ज्ञातव्यं? ह्रस्व अकारं बोधयितुम् अत् इति वदामः. अणुदित् सवर्णस्य च प्रत्ययस्य इति सूत्रेण सर्वेषां सवर्णानां ग्रहणं भवति, किन्तु केवलं ह्रस्वकारम् एव आवश्यकं चेत् तत्र तपरकरणं भवति. यत्र कुत्रापि ह्रस्व अकारं बोधयितुम् अत् इति वक्तव्यमस्ति, नो चेत् समस्या भवति. अकारः इति कथनेन ह्रस्व अकारस्य दीर्घ अकारस्य प्लुतवर्णस्य रूपाणि स्वीकर्तव्यानि, किन्तु तपरकरणं कृतं चेत् केवलं तस्य कालस्य प्रतिनिधिः एव स्वीकर्तव्यः इति. वाक्यद्वयं परिशीलयन्तु. अतः स्थाने इत् भवतु इति एकं वाक्यम्, अकारस्य स्थाने इकारः भवतु. अत्र वाक्यद्वयं दत्तमस्ति, अतः स्थाने इत् भवतु, अकारस्य स्थाने इकारः भवतु. एतद् वाक्यद्वयं परिशीलयामश्चेत् द्वयोः वाक्ययोः अर्थः समानः नास्ति. किमर्थं वदतु?
अतः स्थाने इत् भवतु इत्युक्ते अकारस्य अष्टादश प्रकरणं स्थाने इत् भवितुम् अर्हति, परन्तु क्षम्यताम्, अतः स्थाने इत् भवतु इत्युक्ते अकारस्य केवलं षड् प्रकाराणां स्थाने इकार भवितुम् अर्हति, परन्तु यदि वयं वदामः अकारस्य स्थाने इकार भवतु चेत् तत्र अकारस्य अष्टादश प्रकाराणां स्थाने इकार भवितुम् अर्हति, अकारस्य आकारस्व वा अकारस्य वा इति. तदेव अत्र अर्थः.
उत्तमं, तदेव महोदय. उदाहरणत्वेन वाक्यद्वयं दत्तमस्ति, अतः स्थाने इत् भवतु इत्युक्ते केवलं ह्रस्वकारस्य स्थाने ह्रस्व इकारः भवतु. अत् इति कथनेन ह्रस्वकारः, इत् इति कथनेन ह्रस्व इकारः एव. किन्तु अकारस्य स्थाने इकारः भवतु इति कथनेन अकारस्य अष्टादशप्रभेदाः सन्ति, इकारस्य अपि अष्टादशप्रभेदाः सन्ति इति कृत्वा द्वयोः वाक्ययोः अर्थः समानः नास्ति. अष्टादश अकाराः के इति एकवारं स्मारयामि. ह्रस्व उदात्त अनुनासिक अकारः, ह्रस्व अनुदात्त अनुनासिक अकारः, ह्रस्व स्वरित अनुनासिक अकारः, ह्रस्व उदात्त अननुनासिक अकारः, ह्रस्व अनुदात्त अननुनासिक अकारः, ह्रस्व स्वरित अननुनासिक अकारः. एते षट् प्रकारक ह्रस्व अकाराः सन्ति, इत्युक्ते ह्रस्व अकारे षट् प्रभेदाः सन्ति. एवमेव दीर्घरूपे अपि षट् प्रभेदाः सन्ति. दीर्घ उदात्त अनुनासिक आकारः, दीर्घ अनुदात्त अनुनासिक आकारः, दीर्घ स्वरित अनुनासिक आकारः, दीर्घ उदात्त अननुनासिक आकारः, दीर्घ अनुदात्त अननुनासिक आकारः, दीर्घस्वरित अननुनासिक आकारः, षट् प्रभेदाः. एवमेव प्लुतवर्णे अपि षट् प्रभेदाः सन्ति. ह्रस्व अकारस्य षट् प्रभेदाः, दीर्घ आकारस्य षट् प्रभेदाः, प्लुत आकारस्यापि षट् प्रभेदाः सन्ति. किन्तु यत्र यत्र तपरं स्वीकृत्य अत् इति उच्यते तत्र निश्चयेन केवलं षट् प्रकारक ह्रस्व अकाराः एव सङ्गृहीतव्याः. यत्र यत्र तपरकरणं कृतमस्ति व्याकरणे तत्र केवलं तस्य कालस्य प्रतिनिधिः एव स्वीकर्तव्यः. अस्मिन् प्रसङ्गे इतोपि ज्ञातव्याः अंशाः के? अदेङ्गुणः इत्यस्मिन् सूत्रे तेङ् इति कथनेन केवलं दीर्घ एकारस्य एव ओकारस्य एव ग्रहणं भवति, प्लुतवर्णानां ग्रहणं न भवति. यदि तपरकरणं नास्ति तत्र एङ् इति कथनेन सर्वेषाम् एकाराणां ग्रहणं भवति स्म, किन्तु तथा मा भवेत् इति विषयः. अदेङ्गुणः इति संज्ञासूत्रम्, आद्गुणः इति गुणसन्धेः विधायकसूत्रमस्ति. आद्गुणः इत्यस्मिन् सूत्रे आत् इति लिखितमस्ति, तत्र तपरकरणं नास्ति. अवर्णात् अचीपरे पूर्वपरयोः एकः गुणः आदेशः भवति इति. आद्गुणः इति विधिसूत्रे तपरकरणं न कृतमस्ति. आत् इति कथनेन पञ्चमी विभक्तिः भवति तत्र. तपरस्तत्कालस्य इति सूत्रस्य विषये सारांशरूपेण किं वक्तव्यम्? तकारः यस्य वर्णस्य अनन्तरम् अस्ति अथवा तकारः यस्मात् वर्णात् पूर्वमस्ति तस्य वर्णस्य तस्य कालस्य एव ग्रहणं भवति.
भगिनि, उपदेशे अजनुनासिक इत् इति वदामः किल, तत्र तपरः तत्कालस्य इति अन्वेति वा इति संज्ञा, किन्तु तत्रापि तपरः अस्ति किल, कथम् अवगन्तुं शक्नुमः? यथा भवती पूर्वम् उक्तवती आत् आत् गुणः इति, तत्रापि तपरः अस्ति, अवर्णात् इति वयं स्वीकुर्मः, किन्तु उपदेशे अजनुनासिक इत् इति वदामः, तत्रापि तपरः अस्ति किल?
इदित् इत्यत्र इत् इत् यस्य सः इति उक्तम् अस्ति. इत् इति कथने प्रथम इत् इत्यस्य अर्थः ह्रस्वैकारः, किन्तु द्वितीय इत् इत्यस्य अर्थः इत् संज्ञकः. एवमेव उपदेशे जनुनासिके इत् इति सूत्रे अपि इत् इति कथने इत् संज्ञकवर्णः.
इदानीम् आत् इति स्थाने
आत् इति कथनेन आद्गुणः इत्यत्र तपरकरणं नास्ति.
कथं वयम् अवगच्छामः संज्ञा वा अथवा तपरः अस्ति वा?
तत्र पञ्चमे अस्ति आद्गुणः.
मया श्रुतं किम् इत्युक्ते आद्गुणः इत्यस्मिन् सूत्रे तपरकरणं न कृतं, केवलम् अदेङ्गुणः इत्यस्मिन् सूत्रे एव तपरकरणं कृत्वा एवं चिन्तनीयमस्ति.
अहं वदामि वा महोदय?
वदतु.
तत्र आद्गुण इत्यत्र तकार योजितम् अस्ति. किमर्थम् इत्युक्ते आ ए एव क्रियते चेत् तत्र वृद्धिभूत्वा अयङ्गे एव भवति, आकारस्य ग्रहणं न भवति तत्र. तदर्थमेव योजितमस्ति तत्र, न तु तपरकरणं.
तर्हि पञ्चमी आत् इति पञ्चमी इति वयम् अवगच्छामः, किन्तु कुत्र पञ्चमी, कुत्र संज्ञा, कुत्र तपरग्रहणम् इति कथम् अस्माकं मनसि स्पष्टता भवति?
महोदय, आकारस्य कृते तपरकरणं आवश्यकता नास्ति. आकारं वदामः चेत् केवलम् आकार एव, यदि ह्रस्वाकारः वदामः चेत् एव अष्टादशग्रहणं भवति, अकारस्य कृते अष्टादश न ग्रहणं भवति. तत्र योजितम् अस्ति
अस्मिन् सूत्रे आगच्छति
वृद्धिरादि.
एतत् आचार्यमुखेन एव वयम् अवगन्तुं शक्नुमः
व्याख्यानात् एव.
व्याख्यान
अहमपि एककक्षायाम् एक आचार्येन उक्तं, तदर्थम् एव अहं वदन्नस्मि. तत्र तकार तदेव अर्थे योजितम् अस्ति, न योजयामः चेत् तत्र वृद्धिः भूत्वा अर्थं विपरीतं भवति इति आचार्येन उक्तं, तदर्थमेव अहम् उक्तम्.
अहमपि एतदेव श्रुतवती. हेगडे महोदय यदा उक्तवान् तदेव अहमपि श्रुतवती. आचार्यमुखात् अवगन्तुं शक्नुमः.
एककक्षायाम् एक आचार्येण उक्तं, तत्र आकारस्य कृते तपरकरणम् आवश्यकता नास्ति, परन्तु तत्र वृद्धिरादेच् आतेच् तत्र तकार न योजयामः चेत् आ ये सन्धि भूत्वा ऐत् भवति इति आचार्येण उक्तम्.
कथं जानीमः कुत्र तपरकरणं कृतमस्ति कुत्र नास्ति इति? केवलं व्याख्यानेन एव अवगन्तुं शक्यते इति तु सत्यम्.
मम आचार्य उक्तम् अकारस्य कृते एव तपरकरणम् आवश्यकता, आकारस्य कृते तपरकरणम् आवश्यकता नास्ति. तत्र किमर्थं तकार तत् वयं ग्रहणीयं, तदर्थम् एव तकार योजितमस्ति इति वयं ग्रहणीयम्. न चेत् आकारस्य कृते किमपि तकार तपरकरणस्य आवश्यकता नास्ति. मम आचार्य उक्तम् आकारस्य कृते केवल अकारस्य कृते ह्रस्वस्वरस्य कृते तपरकरणम् आवश्यकता अस्ति. यदि आकारस्य समीपे तकार योजितमस्ति चेत् तपरकरणम् इति नास्ति, भिन्न अर्थ यदा सन्धि वा दर्शनीयमिति आचार्येण उक्तम्.
नै वृद्धिरादेचदि सूत्रे आत् इत्युक्ते तत् आदीर्घ आकारः अस्ति, आत् तत्र तपरकरणम् अस्ति.
आं भगिनि, वृद्धिरेचि इति विधिसूत्रमस्ति, वृद्धिरादैच् इति आत् ऐच् वृद्धिसंज्ञकवर्णाः के इति ज्ञायते वृद्धिरादैच् इति सूत्रेण. तत्रापि आत् इति कथनेन दीर्घ आकारः इति एव. इतोपि अस्मिन् प्रसङ्गे ज्ञातव्याः अंशाः के? ह्रस्वदीर्घप्लुतानां प्रसङ्गे एका प्रसिद्धा कारिका अपि अस्ति, एकमात्रो भवेद् ह्रस्वः, द्विमात्रो दीर्घ उच्यते, त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं तु अर्धमात्रकम्। एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते, त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं तु अर्धमात्रकम् इति कारिका अस्ति। अपि च अदेङ्गुणः इत्यस्मिन् सूत्रे तप्रकरणं कृतमस्ति, तत्र पञ्चमी तत्पुरुषार्थः अपि अस्ति, बहुव्रीहिसमासस्य अर्थः अपि तत्र अस्ति। किन्तु बहुषु सूत्रेषु एवं रीत्या अर्थद्वयं न सिध्यति। बहुषु सूत्रेषु यत्र यत्र तप्रकरणं दृश्यते तत्र केवलं बहुव्रीहिसमासस्य अर्थः एव दृश्यते, पञ्चमी तत्पुरुषसमास अर्थः विरलतया दृश्यते। अदेङ्गुणः इति सूत्रे आयोगः तेङ् इति अपि वक्तुं शक्यते, एङ् इत्यस्मात् पूर्वं तकारस्य योजनेन तेङ् भवति। तादृशरीत्या पदविभागं कुर्मः चेत् तत्र पञ्चमी तत्पुरुषसमास अर्थः सङ्गच्छते। तादृश अर्थः बहुषु सूत्रेषु न दृश्यते। तप्रकरणं क्रियते चेत् अन्येषु बहुषु सूत्रेषु बहुव्रीहिसमासस्य अर्थः एव तत्र सम्भवति। तकारः परः यस्मात् सः इति अर्थः एव आयास्यति। अपि च ह्रस्वस्वराणां षट् प्रभेदाः सन्ति इति उक्तमस्ति, किन्तु षट् प्रभेदानाम् उच्चारणं कथं भवेत् इति अपि अस्माभिः ज्ञातव्यम्। यदा वयं वेदं शृणुमः अथवा वैदिकश्लोकानाम् उच्चारणसमये एव भेदम् अवगन्तुं शक्नुमः। षण्णां प्रभेदानाम् उच्चारणे तारतम्यम् अथवा पार्थक्यम् अभिज्ञातुं शक्नुमः, न तु लौकिकव्याकरणे। लौकिकव्याकरणे षण्णां ह्रस्वाकाराणाम् उच्चारणभेदः अवगन्तुं न शक्नुमः। अपि च अदेङ्गुणः इत्यस्मिन् सूत्रे अत्योगः एङ् इति कथनेन तत्र सन्धिकार्यमस्ति, जस्त्वसन्धिः भवति। झलां जशोन्ते इति सूत्रेण अत् इत्यत्र यः तकारः अस्ति तस्य तकारस्य स्थाने दकारादेशः भूत्वा अदेङ्गुणः इति भवति, इत्युक्ते जस्त्वसन्धिकार्यं भवति। आहत्य सङ्क्षेपेण तप्रकरणस्य प्रयोजनं किम् इति वक्तव्यं चेत्, सवर्णग्रहणनिषेधार्थं तप्रकरणं क्रियते। यत्र यत्र तप्रकरणेन अथवा तकारस्य स्थापनेन अथवा तपरस्तत्कालस्य इति सूत्रेण सवर्णानां ग्रहणं निषिध्यते, केवलं तस्य कालस्य प्रतिनिधिः एव स्वीकर्तव्यः।
एकनिमिषम्, अष्टाध्यायी.com मध्ये सम्यक् विवरणमस्ति भगिनी, अनन्तरं पश्यतु। हेग्डे महोदय यदा उक्तवान् तदेव सत्यम्, आकार ईकार ऊकार ऋकार ऋकार एते वर्णाः सवर्णग्रहणं कदापि न कुर्वन्ति, अतः एतेषां कदापि तपरकरणमपि न सम्भवति इति उक्तम्। पश्यतु भगिनी अवर्गस्य अनन्तरम् अष्टाध्यायी.com तत्र तत्कालस्य सूत्रस्य विवरणम्
अस्तु। अनन्तरम् उपधादीर्घः इति चतुर्थं कार्यमस्ति, धातुम् आश्रित्य प्राकृतिकानि कार्याणि भवन्ति इति अस्माभिः पठितम्, एतावता सत्वं नत्वं नुमागमः पठितम्। चतुर्थं कार्यम् उपधादीर्घः, अत्र धातुः कीदृशधातुः भवेत्, कीदृशानि निमित्तानि पूरितानि सन्ति चेत् उपधादीर्घत्वं भवति, उपधायाञ्च इति सूत्रेण उपधादीर्घत्वं कीदृशधातुषु भवति। वसन्त महोदय भवान् पठतु।
उपधादीर्घः उपधायां च अष्टमाध्याय द्वितीयपाद अष्टसप्ततितमसूत्रं, धातोः उपधाभूतयोः रेफवकारयोः अल्परयोः इकः दीर्घः स्यात्। हलन्त्यधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति। हलन्तधातूनाम् उपधायां रेफ वा वकार वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति। इक् इत्युक्ते इ ऊर् ल। उपधायां सप्तम्यन्तं च अव्ययं, सिपि धातो धातोरूर्वा अष्टमध्याय द्वितीय अष्टमध्याय द्वितीयपाद चतुस्सप्ततितमं सूत्रम्। इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः व्रोरुपदायाः दीर्घ व्रोरुपदाया दीर्घ इकः इत्यस्मात् व्रोः इकः दीर्घः इत्येषाम् अनुवृत्तिः, हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातोः व्रोः उपधायां च इकः दीर्घः हलि. अत्र व्रोः इत्युक्ते उकारः वा वकाररेफ?
कथम् उच्चारणीयं रेफवकारयोः इत्यस्य अर्थः रवोः, वदतु.
हलन्तं धातु अस्ति चेत् उपधायां स्थितस्य वकारस्य रेफस्य इकः परे उपधायां च इकः इकः दीर्घः. ओके, व्रोः उपधायाम् अस्ति चेत् इकस्य दीर्घः भवति, इकः दीर्घः भवति.
अत्र बहवः निकषाः सन्ति, निमित्तानि सन्ति. निमित्तानि एकम् एकं कृत्वा वदतु.
आदौ वकाररेफ हलन्त्यं धातु भवेत्, उपधायां वकाररेफः भवेत्, इक् वर्णः भवेत्, एते सर्व इकस्य दीर्घः भवति.
धातोः अन्ते हल् वर्णः भवेत्, अन्तिमवर्णः हल् वर्णः, तस्मात् पूर्वं यः वर्णः अस्ति सः वर्णः उपधावर्णः इति उच्यते. अधोभागे अलोन्त्यात् पूर्व उपधा इति संज्ञासूत्रं दत्तमस्ति. उपधा नाम किम् इति अवगन्तुम् अलोन्त्यात् पूर्व उपधा इति संज्ञासूत्रं पठनीयम्. अल्वर्णेषु अन्तिम अल्वर्णात् पूर्वं यः वर्णः अस्ति सः वर्णः उपधावर्णः. धातुः कीदृशः भवेत्? धातोः अन्ते हल् वर्णः भवेत्, तस्मात् पूर्वम् उपधायां रेफः अथवा वकारः भवेत्, अपि च तस्मात् पूर्वम् इक् प्रत्याहारस्थवर्णः भवेत्. अत्र त्रीणि निमित्तानि आवश्यकानि. त्रीणि निमित्तानि पूरितानि सन्ति चेदेव धातौ उपधादीर्घत्वं भवति. अत्र कुर्द इति धातुः अस्ति, धातुं स्वीकृत्य विवृणोतु. तत्र सर्वाणि निमित्तानि पूरितानि वा न वा?
कुर्द अत्र उपदेश अजनुनासिक इत्यनेन अनुनासिक अकारस्य इत्संज्ञा भवति, तस्य लोपः भवति. कूर्द इति अवशिष्यते. कूर्द अत्र कूर्द हलन्तमस्ति, उपधायां रेफः अस्ति. तस्य पूर्वम् उकारः अस्ति, ककार उकार रेफ दकार. अत्र सर्वमपि निमित्तानि सन्ति, तथैव कूर्द तस्य दीर्घः भवति, एवं वा? कूर्द उकारस्य दीर्घः भवति, कूर्द इति भवति.
उत्तम
भगिनी, अत्र उपधायाम् इति सप्तम्याम् अस्ति किल, तस्मिन् यदि निर्दिष्टे पूर्वस्य इति पूर्वं परिभाषासूत्रं पठितवन्तः, अत्र कथं कीदृश सप्तमी अस्ति, कीदृशी सप्तमी?
रेफ वकार उपधायां सन्ति, इकस्य परे सन्ति.
मम प्रश्नः तु उपधायाम् इति सप्तम्याम् अस्ति सूत्रे, सप्तम्याम् अस्ति चेत् निमित्तम् अस्ति सप्तमी मध्ये, तस्य कार्यं पूर्वं भवति तस्मिन् यदि
पूर्वं स्थितस्य इकार इक् वर्णस्य दीर्घः भवति. रेफ वकारस्य पूर्वं स्थितस्य इक् वर्णस्य दीर्घः भवति.
रेफात् पूर्वं
पूर्वम्
एवं वा भगिनि?
प्रथमं वाक्यम् एकवारं पुनः पश्यन्तु. धातोः उपधाभूतयोः रेफवकारयोः, रेफवकारयोः इति एकं पदमस्ति, हल् परयोः इति अन्यत् पदमस्ति. अनयोः द्वयोः विशेषणविशेष्यभावः अस्ति. कीदृशरेफवकारयोः इत्युक्ते हल् परयोः रेफवकारयोः इति अर्थः अस्ति. तत्र रेफवकारयोः इति विशेष्यमस्ति, हल् परयोः इति विशेषणमस्ति. हल् परयोः रेफवकारयोः इकः दीर्घः स्यात् इत्युक्ते उपधाभूतयोः रेफवकारयोः, उपधायां रेफः अथवा वकारः अस्ति चेत्, अन्तिमवर्णः हल् वर्णः अस्ति चेत्, तादृशी स्थितिः अस्ति चेत् तदा रेफवकारात् पूर्वम् इक् प्रत्याहारस्थवर्णः, इक् प्रत्याहारस्थवर्णः इत्युक्ते इक् प्रत्याहारे इवुरुलु वर्णाः सन्ति, एतेषु अन्यतमवर्णः रेफात् पूर्वम् अथवा वकारात् पूर्वम् अस्ति चेत् तस्य दीर्घत्वं भवति. इदं कार्यं निमित्तम् अनपेक्ष्य भवति. एतत् कार्यं भवितुं परनिमित्तम् अनावश्यकम्. धातौ आनुकूल्यं, धातौ एतादृशानि निमित्तानि सन्ति चेत् कार्यम् एवमेव भवति, परनिमित्तम् अनपेक्ष्य भवति. अत्र कुर्द् धातोः प्रसङ्गे तादृशी स्थितिः अस्ति इति कृत्वा कुर्दौ इति औपदेशिकधातोः रूपं कूर्द् भवति, आहत्य लौकिकधातोः रूपं कूर्द्, उपधायाः दीर्घत्वं भूत्वा कूर्द् भवति. इतोपि धातुद्वयं दत्तमस्ति, तेषां प्रसङ्गे गीताञ्जलि भगिनी भवती विवृणोतु.
कूर्द, कूर्द मूलरूपं कूर्द वा भगिनि?
कुर्दौ,
कुर्दा अस्ति धातु. अत्र तु रेफ उपधा अस्ति, हलन्तं मूलरूपम् अपि हलन्त अन्तिमरूपम् अस्ति. अपि च तस्य रेफ उपधा अस्ति चेत् तदपि निमित्तं हलन्तम् अस्ति, तदपि निमित्तं तस्य पूर्वं यः ह्रस्व ऊकार अस्ति तत् ऊकार दीर्घं भवेत् इति सूत्रं वदति चेत् खूर्द इति आयाति इति निष्पन्नं भवति.
अत्र अन्यः धातुः अस्ति गुर्दा, औपदेशिकरूपं स्वीकृत्य सोपानेन वदतु.
गुर्दा अस्ति, गुर्दा अपि अत्र गुर्दा द द परे अकार भवति भगिनि, तत्र गुर्दा
अनुनासिक अकारः अस्ति धातौ उपदेशावस्थायां.
हा, अनुनासिक अन्तिम अकार अनुनासिक अस्ति चेत् इत् भूत्वा, इत्युक्ते उपदेशे जनुनासिक इति सूत्रेण इत् भूत्वा अपगच्छति. अधुना गुर्द् भवति, तत् धातु हलन्त्यम् अस्ति, अपि च उपधा रेफ अस्ति, तस्य पूर्वम् उ अस्ति इति रूपं सर्वाणि निमित्तानि तत्र सन्ति. तत्र रेफस्य पूर्वं यः ह्रस्व उ अस्ति तत् दीर्घत्वं भवति, ऊर्द् इति आयाति.
उत्तमम्. आदौ अनुबन्धवर्णानां निष्कासनम्, अत्र अनुनासिक अकारः अस्ति इति कृत्वा उपदेशे जनुनासिके इति सूत्रेण तस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. गुर्द् अन्ते दकारः अस्ति, दकारः हल् वर्णः, दकारात् पूर्वं यः वर्णः अस्ति सः वर्णः उपधावर्णः. अत्र उपधायां रेफः अस्ति, दकारात् पूर्वम् उपधायां रेफः अस्ति, अपि च रेफात् पूर्वम् इक् प्रत्याहारस्थवर्णः ह्रस्व उकारः अस्ति. अस्मिन् धातौ सर्वाणि निमित्तानि पूरितानि, तदर्थम् उपधायाञ्च इति सूत्रेण अत्र उपधायां यः इक् वर्णः अस्ति तस्य इकः दीर्घत्वं भवति. एतादृशधातवः बहवः सन्ति, परनिमित्तम् अनपेक्ष इदं कार्यम् आदौ करणीयम्. अनुबन्धवर्णानां निष्कासनं पश्चात् इदं कार्यं धातुमाश्रित्य करणीयम्. अपि च अत्र किं लिखितं, रेफवकारयोः हल्परयोः इति उक्तमस्ति. अत्र ये ये धातवः दत्ताः तेषु उपधायां रेफः एव अस्ति, उपधायां वकारः अस्ति वा यस्मिन् कस्मिन्नपि धातौ इति अपि परिशीलनीयम्. वकारस्य उदाहरणानि विरलानि इति भाति. उपधायां वकारः यस्मिन् धातौ अस्ति तादृशधातवः बहवः न सन्ति इति भाति. अत्र हलि च इति सूत्रात् हलि इत्यस्य अनुवृत्तिः अस्ति. हलि च इति सूत्रं कुत्र द्रष्टुं शक्यते इत्युक्ते दिवादिगणे एकः धातुः अस्ति, दिवादिगणे प्रथमसदस्यः दिव् अस्ति, धातुगणस्य नाम दिवादिगणः, दिवादिगणे प्रथमसदस्यः दिव् धातुः. दिव् धातुतः दीव्यति, दीव्यति तत्र दीर्घत्वं भवति. केन सूत्रेण इति पश्यामश्चेत् हलि च इति सूत्रेण दीव्यति इति रूपं सिद्ध्यति. दिव् धातुः अपि वकारान्तधातुः. हलि च इति सूत्रे कीदृशानि निमित्तानि आवश्यकानि इति अपि परिशीलनीयम्। दिव्धातौ हलिचसूत्रस्य कृते निमित्तानि पूरितानि सन्ति इति कृत्वा हलिचसूत्रेण दीर्घत्वं भूत्वा दीव्यति इति रूपं भवति। पश्यन्तु दिवादिगणे दिव्योगः ष्यन् योगः तिप् योजनेन ष्यन् इति विकरणप्रत्ययः आयाति खलु दिवादिभ्यः ष्यन् इति सूत्रेण दिव्योगः ष्यन् योगः तिप् तत्र ष्यन् इत्यस्मात् य अवशिष्यते दिव्योगः य योगः ति इति रूपम् अस्ति। दिव्यति इति भवति स्म किन्तु न भवति तत्र हलिचसूत्रेण दीर्घत्वं भूत्वा दीव्यति इति रूपम् अलोन्त्यात् पूर्व उपधा इति संज्ञासूत्रम् अस्ति। रोहिणी भगिनी भवती पठतु।
अलोन्त्यात् पूर्व उपधा वर्णानां समुदाये यः अन्तिमवर्णः तस्मात् पूर्वः यः वर्णः अस्य उपधा संज्ञा स्यात्। अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वः प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम्। अल् प्रत्याहारे सर्वेपि वर्णाः अन्तर्भूताः अच् योग हल् अल् सूत्रं स्वयं सम्पूर्णम्। अन्त्यात् अलः पूर्वः उपधा उपधा किम् इति वदति अलो अन्त्यात् पूर्व उपधा इति संज्ञासूत्रेण अन्त्यलः पूर्वः यः वर्णः अस्ति तत् उपधा संज्ञा भवति।
अत्र किं लिखितं वर्णानां समुदाये यः अन्तिमवर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य उपधा संज्ञा स्यात्। अलः इति पञ्चम्यन्तम् अन्त्यात् इति पञ्चम्यन्तं पूर्वः प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम्। अल् अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः अल् इति कथनेन अच्योगः हल् अल् भवति खलु अच्योगः हल् अल् भवति इत्युक्ते स्वराः अपि च व्यञ्जनानि सर्वे वर्णाः अल् प्रत्याहारे अन्तर्भूताः। उपधा नाम किम् इति अवगन्तुं कानिचन उदाहरणानि परिशीलयाम। रामः इति पदमस्ति चेत् तत्र उपधावर्णः कः वदतु।
अन्त्यवर्णः अकारः भवति तत्पूर्वं मकारः अस्ति तस्मात् रामः राम इति शब्दे मकारः उपधा भवति।
रामः इत्यत्र अन्तिमवर्णः विसर्गः अस्ति विसर्गात् पूर्वं यः वर्णः अस्ति अकारः अस्ति अकारः एव तत्र उपधावर्णः। रामम् इत्यत्र उपधावर्णः कः
अत्र मकारः अन्त्यवर्णः अकारः अन्त्यवर्णात् पूर्वं भवति तस्मात् अकारः उपधा संज्ञा भवति।
मकारः अन्तिमवर्णः मकारात् पूर्वं यः वर्णः अस्ति सः उपधावर्णः मकारात् पूर्वम् अकारः अस्ति रामम् इत्यत्र। कृष्ण इति पदमस्ति चेत् तत्र किं भवति
तत्र अकारः अन्तिमवर्णः तत् पूर्वं ञकारः भवति तत्र उपधा ञकारः भवति
मूर्धन्यणकारः तत्र उपधासंज्ञकवर्णः। कृष्ण इत्यत्र अन्तिमवर्णः ह्रस्वाकारः अस्ति अकारात् पूर्वं यः वर्णः अस्ति सः वर्णः एव उपधावर्णः तत्र मूर्धन्यणकारः उपधावर्णः। एवं रीत्या वर्णानां समुदाये यः अन्तिमवर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य उपधासंज्ञा भवति। अथवा भिन्नरीत्या वक्तुमिच्छामश्चेत् यस्मिन् कस्मिन्नपि शब्दे अल् वर्णेषु यः अन्तिम अल् वर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य उपधासंज्ञा भवति। कुर्द् इति कथनेन तत्र उपधावर्णः रेफः अस्ति कुर्द् इत्यत्र दकारात् पूर्वं रेफः अस्ति इति कृत्वा सः रेफः एव उपधावर्णः। एतावत्पर्यन्तं वयं रेफः रेफः इति वदन्तः स्मः रेफः नाम किम् इति अपि ज्ञातव्यं रकारः अथवा रेफः द्वयोर्मध्ये भेदः अस्ति वा भवती पठतु।
प्रश्नः उदीयत रेफ इत्युक्ते कः वर्णः यः रकारः उपरि उपविष्टः अथवा सर्वे रकाराः उत्तरं सर्वे रकाराः एव रेफ नाम रात् इभः इभः कश्चन प्रत्ययः योग इभ रेभः इति प्रत्याहारे द्वयो वर्णौ स्तः अत्र रेफा इत्युक्ते द्वौ अपि भवति इति चिन्तयामि.
प्रश्नः उदीयेत इति लिखितमस्ति. उदीयेत इति कीदृशं रूपं कोऽपि वदतु?
विधिलिङ्गः भगिनि.
विधिलिङ्गरूपम् अस्ति, कर्मणि विधिलिङ्ग् इति वक्तव्यमस्ति. अत्र उत् उपसर्गपूर्वकः, ईयेत ई इति धातुः अस्ति, ई धातोः विधिलिङ्ग्लकाररूपमस्ति ईयेत. उदीयेत इति कर्मणि विधिलिङ्ग्रूपम् अस्ति. आत्मनेपदिधातूनां रूपाणि एवं भवन्ति विधिलिङ्ग्रूपाणि. कुर्द् इत्यत्र रेफः उपरि उपविष्टः खलु, कुर्द् इत्यत्र रकारः उपरि अस्ति खलु, तादृशरकारः वा नो चेत् सर्वे रकाराः वा इति प्रश्नः. रेफः इति कथनेन सर्वे रकाराः इति अर्थः. किञ्चित् वक्तुमिच्छामि रेफस्य प्रसङ्गे. साधारणतया वयम् अकारः, इकारः, उकारः इति पदानि वयं साधारणतया शृणुमः खलु. सर्वेभ्यः वर्णेभ्यः कारप्रत्ययः भवति. सर्वेभ्यः वर्णेभ्यः कार इति प्रत्ययः वर्णात् कारः इति वार्तिकेन भवति. तद्वार्तिकं कुत्र अस्ति? तृतीयाध्यायस्य तृतीयपादस्य अष्टाधिक एकशतं सूत्रमस्ति. सूत्रे एकम् अन्तर्गतं वार्तिकमस्ति. तद्वार्तिकमेव वर्णात् कारः. वर्णात् कारः इति वार्तिकेन सर्वेभ्यः वर्णेभ्यः कारप्रत्ययः भवति. तदर्थमेव अकारः, इकारः, उकारः एवं रीत्या वदामः. सर्वेषु वर्णेषु रकारः अपि अन्तर्भूतः खलु, तदर्थं रकारः अपि वक्तुं शक्यते. वर्णात्कारः इति वार्तिकेन रकारः इति अपि वक्तुं शक्यते. किन्तु केषाञ्चन वैयाकरणानां मतेन रकारः इति असाधुप्रयोगः. रकारः इति वदनेन तत्र साधुत्वं नास्ति. रकारः इति साधुप्रयोगः नास्ति. तदर्थमेव रकारः इति पदं विरलतया शृणुमः. साधारणतया रेफः इति एव शृणुमः. बहवः वैयाकरणाः एवं वदन्ति यत् रेफः इति प्रयोगः एव साधुप्रयोगः अथवा शिष्टप्रयोगः. रकारः इति पदं कथमागतं? वर्णात्कारः इति वार्तिकेन कारप्रत्ययः भूत्वा रकारः इति रूपम् आगतं. किन्तु रेफः इति कथमागतम्? रावर्णात् इफ प्रत्ययः विधीयते. रादीफः इति वार्तिकमस्ति. रादीफः तत्र सन्धिकार्यमस्ति. रात् इफः इति तत्र पदद्वयमस्ति. रात् योगः इफः इति रूपमस्ति. जस्त्वसन्धिः भूत्वा रादीफः इति रूपं सिद्ध्यति. रादीफः इति वार्तिकम्. रादीफः इति वार्तिकेन रावर्णात् इफ प्रत्ययः भवति. रायोगः इफः इति रूपमस्ति. तत्र अकार इकारयोः मध्ये गुणसन्धिकार्यं भूत्वा रेफः इति रूपं सिद्ध्यति. रकारः अथवा रेफः द्वयोः प्रसङ्गे वार्तिकद्वयं ज्ञातव्यम्. वर्णात्कारः इति एकं वार्तिकमस्ति, रादीफः इति अन्यद्वार्तिकमस्ति. रादीपः वार्तिकेन रेफः इति साधितम्. अत्र उपधायां रेफः अस्ति इति कृत्वा उपधायाञ्च इति सूत्रेण तत्र स्थितस्य ईकवर्णस्य दीर्घत्वं भवति. वदतु.
अवधेयम् उपदेशे अचननासिक इत् प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रम् इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत्संज्ञा न भवति. तदा एव इत्संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति, यथा लिख, पठ इत्यादयः धातवः. किन्तु भू नि इत्यादिषु अजन्तधातुषु अन्तिमः अच् वर्णः अनुनासिकः नास्ति, अतः तत्रत्यानाम् अच् वर्णानाम् इत्संज्ञा न भवति. परन्तु हलन्तिम् इति सूत्रेण सर्वेषां मूलधातूनाम् अन्तिमस्य हलः इत् संज्ञा भवति एव. उपदेशे अजन्तस्य इत् इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् न भवति. प्रत्येकम् अनुनासिकस्य वर्णस्य एव इत् संज्ञा भवति. परन्तु हलन्तिम् इति सूत्रेण सर्वेषां अन्धधातूनाम् अन्तिमस्य हरः इति संज्ञा भवति, तस्मात् तस्य लोभः अपि भवति.
उत्तमं भगिनि, तदेव उपदेशे जनुनासिक इत् इति सूत्रेण अनुनासिक अचुवर्णस्य एव इत् संज्ञा भवति इति स्मर्तव्यः अंशः. अस्माभिः पूर्वमेव पठितम् इत्युक्ते यः अचुवर्णः चन्द्रबिन्दुना सह लिख्यते अथवा चन्द्रबिन्दुना सह यः अचुवर्णः अस्ति सः अचुवर्णः अनुनासिकः. तादृश अनुनासिक अचुवर्णः यस्मिन् धातौ अस्ति तस्य एव इत् संज्ञा भवति उपदेशजनुनासिके इत् इति सूत्रेण. तदर्थमेव अत्र धातुद्वयं लिखितमस्ति, लिखा पठा, तत्र चन्द्रबिन्दुना सहित अकारः अस्ति, अनुनासिक अकारः अस्ति, तदर्थमेव लिखा इत्यत्र उपदेशजनुनासिके इत् इति सूत्रेण तस्य अनुनासिक अकारस्य इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन सः अनुनासिक अकारः अपगच्छति. तेन लौकिकधातुः लिख् एवमेव पठा इत्यस्मात् पठ् इति लौकिकधातुः रूपं सिद्ध्यति. इत्युक्ते अचुवर्णः अनुनासिकः अस्ति चेदेव तस्य इति संज्ञा भवति, नो चेत् न. तत्र भूनि इति धातुद्वयमपि दत्तमस्ति, भूधातौ अनुबन्धवर्णाः न सन्ति. अत्र भू इति कथनेन यः ऊकारः श्रूयते सः ऊकारः अनुनासिकः नास्ति, तदर्थं सः ऊकारः तिष्ठति भूधातौ. एवमेव नीधातौ अपि यः दीर्घ ईकारः अस्ति सः ईकारः चन्द्रबिन्दुसहितः नास्ति, अनुनासिकः नास्ति इति कृत्वा ईकारः तत्र तिष्ठति. भूधातौ नीधातौ अनुबन्धवर्णाः न सन्ति. एते धातवः अजन्तधातवः एव, अन्ते अचुवर्णः अस्ति एव, किन्तु सः अचुवर्णः अनुनासिकः नास्ति, अतः तस्य इत् संज्ञा न भवति. किन्तु हलन्त्यं सूत्रेण किं भवति, हलन्त्यं सूत्रेण अन्ते स्थितस्य हल्वर्णस्य इत् संज्ञा भवति. एतत् सर्वम् अस्माभिः पठितमेव. आहत्य अत्र केचन धातवः दत्ताः उपदेशावस्थायां, मूलधातवः अत्र प्रदर्शिताः सन्ति, तेषां लौकिकरूपाणि साधनीयानि. कैः कैः सूत्रैः किं कार्यं भवति, धातोः रूपं कीदृशमस्ति, अनुबन्धवर्णाः के, प्राकृतिकानि कार्याणि भवन्ति वा न वा, एतत् सर्वम् अस्माभिः ज्ञातव्यं. भवन्तः सर्वे एकवारम् अभ्यासं कुर्वन्तु गृहपाठरूपेण. आगामिनी सप्ताहे वयं सर्वे मिलित्वा अभ्यासं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.